सौराष्ट्रे सोमनाथंच श्रीशैली मल्लिकार्जुनम् उज्जन्याम् महाकालम् ओंकार ममलेश्वरम् परल्याम् वैद्यनाथंच डाकिन्याम् भीमशंकर सेतुबंधे तु रामेशम् नागेशम् दारुकावने वारणस्यान्तु विश्वेशम् त्र्यम्बकम् गौतमी तटे हिमालये तु केदारम् दुष्मेशम् च शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम् संपूर्ण सौराष्ट्रे सोमनाथंच श्रीशैली मल्लिकार्जुनम् उज्जन्याम् महाकालम् ओंकार ममलेश्वरम् परल्याम् वैद्यनाथंच डाकिन्याम् भीमशंकर सेतुबंधे तु रामेशम् नागेशम् दारुकावने वारणस्यान्तु विश्वेशम् त्र्यम्बकम् गौतमी तटे हिमालये तु केदारम् दुष्मेशम् च शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम् संपूर्ण सौराष्ट्रे सोमनाथंच श्रीशैली मल्लिकार्जुनम् उज्जन्याम् महाकालम् ओंकार ममलेश्वरम् परल्याम् वैद्यनाथंच डाकिन्याम् भीमशंकर सेतुबंधे तु रामेशम् नागेशम् दारुकावने वारणस्यान्तु विश्वेशम् त्र्यम्बकम् गौतमी तटे हिमालये तु केदारम् दुष्मेशम् च शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम् संपूर्ण सौराष्ट्रे सोमनाथंच श्रीशैली मल्लिकार्जुनम् उज्जन्याम् महाकालम् ओंकार ममलेश्वरम् अपरल्यां वैद्यनाथं च डाकिन्यां भीमशंकर शेतुबंधे तु रामेशं नागेशं दारुकावने वारणयस्यान्तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रं संपूर्ण सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर शेतुबंधे तु रामेशं नागेशं दारुकावने वारणयस्यान्तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रं संपूर्ण सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर शेतुबंधे तु रामेशं नागेशं दारुकावने वारणयस्यान्तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रं संपूर्ण सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर शेतुबंधे तु रामेशं नागेशं दारुकावने वारणयस्यान्तु विश्वेशम् त्र्यम्बकम् गौतमी तटे हिमालये तु केदारम् दुष्मेशं च शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम् संपूर्ण सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्याम् महाकालम् ओंकार ममलेश्वरम् परल्याम् वैद्यनाथं च डाकिन्याम् भीमशंकर सेतुबन्धे तु रामेशम् नागेशम् दारुकावने वारणयस्यान्तु विश्वेशम् त्र्यम्बकम् गौतमी तटे हिमालये तु केदारम् दुष्मेशं च शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिर्लिङ्ग स्तोत्रम् संपूर्ण सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्याम् महाकालम् ओंकार ममलेश्वरम् परल्याम् वैद्यनाथं च डाकिन्याम् भीमशंकर सेतुबन्धे तु रामेशम् नागेशम् दारुकावने वारणयस्यान्तु विश्वेशम् त्र्यम्बकम् गौतमी तटे हिमालये तु केदारम् दुष्मेशं च शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम् संपूर्ण सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्याम् महाकालम् ओंकार ममलेश्वरम् परल्याम् वैद्यनाथं च डाकिन्याम् भीमशंकर सेतुबन्धे तु रामेशम् नागेशम् दारुकावने वारणयस्यान्तु विश्वेशम् त्र्यम्बकम् गौतमी तटे हिमालये तु केदारम् दुष्मेशं च शिवालये एतानि ज्योतिलिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रम् संपूर्ण। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर सेतुबन्धे तु रामेशं नागेशं दारुकावने वारणस्यान्तु विश्वेशं त्र्यम्बकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रम् संपूर्ण। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर सेतुबन्धे तु रामेशं नागेशं दारुकावने वारणस्यान्तु विश्वेशं त्र्यम्बकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रम् संपूर्ण। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर सेतुबन्धे तु रामेशं नागेशं दारुकावने वारणस्यान्तु विश्वेशं त्र्यम्बकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिङ्गानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम संपूर्ण। सौराष्ट्रे सोमनाथंच श्रीशैली मल्लिकार्जुनम उज्जन्याम महाकालम ओंकार ममलेश्वरम परल्याम वैद्यनाथंच डाकिन्याम भीमशंकर शेतुबंधे तु रामेशम नागेशम दारुकावने वारणयस्यान्तु विश्वेशम त्र्यंबकम गौतमी तटे हिमालये तु केदारम दुष्मेशं च शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते। इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम संपूर्ण। सौराष्ट्रे सोमनाथंच श्रीशैली मल्लिकार्जुनम उज्जन्याम महाकालम ओंकार ममलेश्वरम परल्याम वैद्यनाथंच डाकिन्याम भीमशंकर शेतुबंधे तु रामेशम नागेशम दारुकावने वारणयस्यान्तु विश्वेशम त्र्यंबकम गौतमी तटे हिमालये तु केदारम दुष्मेशं च शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते। इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम संपूर्ण। सौराष्ट्रे सोमनाथंच श्रीशैली मल्लिकार्जुनम उज्जन्याम महाकालम ओंकार ममलेश्वरम परल्याम वैद्यनाथंच डाकिन्याम भीमशंकर शेतुबंधे तु रामेशम नागेशम दारुकावने वारणयस्यान्तु विश्वेशम त्र्यंबकम गौतमी तटे हिमालये तु केदारम दुष्मेशं च शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते। इति श्री द्वादश ज्योतिर्लिंग स्तोत्रम संपूर्ण। सौराष्ट्रे सोमनाथंच श्रीशैली मल्लिकार्जुनम उज्ज पर्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर शेतुबंधे तु रामेशं नागेशं दारुकावने वारणस्यान्तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रम् संपूर्ण। सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर शेतुबंधे तु रामेशं नागेशं दारुकावने वारणस्यान्तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रम् संपूर्ण। सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर शेतुबंधे तु रामेशं नागेशं दारुकावने वारणस्यान्तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं दुष्मेशं च शिवालये एतानि ज्योतिलिंगानि सायं प्रातः पठेन्दर सप्त जन्म कृतं पाप स्मरणेन विनश्यते इति श्री द्वादश ज्योतिलिंग स्तोत्रम् संपूर्ण। सौराष्ट्रे सोमनाथं च श्रीशैली मल्लिकार्जुनम् उज्जन्यां महाकालम् ओंकार ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकर सेतुबन्धेतु रामेशम् नागेशम् दारुकावने वारणस्यान्तु विश्वेशम् त्र्यम्बकम् गौतमी तटे हिमालये तु केदारम् दुष्मेशम् च शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्दर सप्त